So hopefully this is pretty clear. We can start using all these in ikaranta, ukaranta, right? And strilinga, pullinga, nakunshakalinga, shabdaha, ukaranta, rasva, dirgha, ukaranta, guru shabda, hari shabda, api upayogam kartum shakyate. So we will look at the slides we shared also in the last class. That also we can look. Pratama etat kurma deva pratipadankam ityukte deva shabda sapteshu vibhaktishu etat bhavati. Okay, devaha devau devaha vivachana tyajatu idanim. You don't have to pay much attention at this point, but just deva devaha. So sapteshu vibhaktishu pashyamaha. So what forms it takes, devaha devaha. So since we are not like immersed, right, we are not speaking too much, you might have to just kind of look at the pattern and at least like memorize couple of them, then you will it will be the same thing. So the format, the pattern will repeat. So hopefully you can get used to it. So you have to little bit of memorize, so to speak. 5 minutes, 10 minutes, you have to look at it. Since we don't speak, right, so different forms may not be like second nature to you, because we are not speaking all day. We can speak in the class, but it may not continue when you are doing other things and at home. So okay, pratama devaha devau devaha devam devau devan devena devabhyam devaihi devaya devabhyam devebhya devat devabhyam devebhya devasya devayoho devanam deve devayoho deveshu. Okay, so sambodhana api. Okay, hey deva deva, hey devo, hey deva.
Sorry to interrupt me, we are still seeing Pratama Vibhakti screen.
Oh, I'm again. Thanks for Prishadeva, can you see? Idanim? Kshamyatam. Since it's like Klesha Hasti, like there is a problem with sharing. I don't know what's happening, but okay. So these are the like Sapteshu Vibhaktishu Devaha Devo. Okay, Devaha Devo Devaha. So better to like I will send. I think you have all the tables we have sent. Just go over all this. See, Sita is little bit different, right? Akaranta Strilinga Shabda Sita. Okay, Sita Shabda Sita Pradipadikam Api Tadaiva. Sita will not change. The Mula Shabda Pratipadikam Ityukte Mula Shabda. So that is called Mula Shabda. So for Akaranta, Sita, Site, Sitaha, Sitam, Site, Sitaha, Sitaya, right? Sitaya, Sitabhyam, Sitabhi, Sitayai, Sitabhyam, Sitabhya, Sitayaha, Sitabhyam, Sitabhya, Sitayaha, Sitayoho, Sitanam, Sitayam, Sitayoho, Sitas. Okay? Hey, Site, Hey, Sitaha. So these are the, like, vanam also, it's, see, when vanam, vane, vanam, akaranta, napunsakalinga, फर्स्ट प्रथम द्वयं प्रथमा द्वितीया विभक्ति वनं वने वनानि वनं वने वनानि तत्पर पश्चात ऑल दीज फॉलो द अकारांत पुल्लिंग शब्द दीज ऑल विल बी द सेम सो दैट इज प्रेटी इजी ओके so gauri is like nadi shabda you have seen all the forms so this should be also easy for you okay when you saw nadi ikaranta with all the sentences prathama stare vayam drishtavanta hello vistareena drishtavanta we saw all the lot of sentences in detail so this also you should be okay so like that you have to build your kind of vocabulary in all the vipakis make sentences okay so just I was going to give you a overview this particular I have not sent but the I have sent a big slide right with all the vibhaktis you already have it so I sent it today also so in the email I sent today you should have it when you open it so it has all the ukasi ukaranta madhu all this is here so vibhakti vallari we will start with that's why prathama vibhakti is not explained in vibhakti vallari but that's why I wanted to just give you an overview of the prathama vibhakti okay yeah this is the one I was saying okay so all the forms you have here okay this is going forward this will be very useful okay so hopefully you can go over everything here so ikaranta rakaranta so whenever you see in the akaranta rama this is called the mula shabda pratipadika pratipadika so here शिशु धेनु पिता सिहृकारान्त पितृशब्दः मातृशब्दः धातृशब्दः ओके नेत्रशब्दः नदी वधु सर्वमस्ति अत्र okay so here we can do some simple sentences we can do one by one so you will get some kind of a punasmaranam prathama vibhakti upayogya kimapi sarala vakyam kurmah so simple sentences we'll do one by one
So okay I'll be sending the vibhakti vallari on pdf but I have a request to all of you so since Sanskrit Bharati is a non profit you know they actually they sell these books okay so that they get some income so I would encourage you to buy the books and they are very 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 reasonably priced so even though I'm sending the pdf which is unofficial so don't spread this we'll keep it to ourselves but it is encouraged that you buy the books and that way at least you know you show your gratitude or you know you encourage them because see there is no charge for these classes you know so some kind of encouragement so like all the teachers we are volunteers you know. So that is what I would advise. So okay. So hopefully you know what the Prathama Vibhakti is. Like on the screen, Ramaha, Saha, if you know, if you remember, Saha, Sa, Eshaha, Esha. So I would ask you one by one to make some simple sentences using a Prathama Vibhakti and anything else, okay, after that. So, can you get us started, Usha Bhagini? Sarala Vakyam Vadatu?
Balakaha Gachati.
Ah, Samyak. Samyak Bhagini. Dhanyavad. Sunil Mahodaya?
Harihi Kridati.
Ah, Samya. Suhasini Bhagini.
Ramaha Vanam Gachati.
Samyak. Subodh Mahodaya.
Vinodaha Suresham Dandena Tadayati.
Uttamam Mahodaya. Saraswati Bhagini.
Mata Pachati.
Samya. Sanjana Bhagini.
Ramaha Vidyalayam Gachati.
Samyak, Uttamam. Rameshwari Bhagini, Prayatnam Karotu.
Guruhu Pathayati.
Samyak. Rajshri Bhagini.
Pita Patati.
Samyak. Nitesh Mahodaya.
Guruh Sanskrit Patati.
Sanskritam Patati. Manju Mahodaya.
Ramaha Likati.
Samyak. Madhavi Bhagini.
Esha Dhavati.
Samya. Jaya Bhagini.
Saha Pibati.
Hemangi Bhagini.
Aham Ramam Namami.
Samya. Bhumi Bhagini.
Lata Apanam Gachati.
Samyak Bhagini. Balakrishna Mahodaya.
Krishnaha Renunadam Karodi. Karoti.
Karoti. Puna Vadatu Mahodaya.
Krishnaha Venunadam
Karoti. Samyak Mahodaya. Aparna Bhagini.
Aham Toronto Nagare Vasami.
Samyak. Uttamam. Okay, so we all get an idea of the Prathama Vibhakti. And by the way, it is good to hear your voices and see you online. We missed you people. And welcome to the new folks who are joining today. hopefully you will enjoy our classes and learn something in the process. And by the way, we have also learned quite a lot from all of you, especially how to teach and how not to teach, and what to explain and what not to explain. So thank you for that participation in the last class, and hopefully it will be even better going forward. So now that we have done the Prathama Vibhakti, let's quickly look at the Dvitiya Vibhakti. So some of you have already used that in the sentences you made just now. Let me try to pull up the Vibhakti Valeri. Ek nimisham. Okay, hopefully you can see this. So, can you read this, Aparna Bhagini? After Dvitiya, can you see the screen to read it?
Amode.
Pathani? Slowly.
Dvitiya Vibhakti. द्वितीया विभक्ति वाक्ये क्रियासूचकं पदं क्रियापदं कर्तृसूचकं पदं कर्तृपदं यत् कर्म सूचयति तत् कर्मपदं कर्मपदस्य द्वितीया विभक्तिः भवति उदाहरणार्थ बालकं बालकः पाठं पठति बालिका मालां रचयति सः फलं खादति
सम्यक् धन्यवादः भगिनी So when you read Bhagini, kinchit shenaihi mandam, mandam mandam patatu. So we'll hear and understand. So udaharanam balakaha patam patati. Okay, balakaha patam patati. Balika malam rachayati. Saha phalam khadati. So you see the underlined words, those are the dvitiya vibhakti. Okay, balakaha patam patati. So in this sentence, what the Sanskritam explanation is, balakaha is called the kartrupadam. Okay, balakaha kartrupadam asti. Patam is the karma padam. Okay, balakaha kim karoti, balakaha patam patati. So patam is the karma padam. And patati is the kriya padam, what we say, the verb. Okay, balakaha patam patati. So the way to remember this is ekam dve ekam, 1-2-1. So balakaha, the kartrupadam, is always the prathama vibhaktihi. Patham, the karma padam, is the dvitiya vibhaktihi. Okay, and patati is the kriya padam, which is as per the kartrupadam. Okay, so here you see Ramaha, Ramam is the Dvitiya Vibhakti. For Sita, it is Sitam. And Vanam, like it was for the Napunsakalingam, usually the Prathama and the Dvitiya is the same. Okay, Vanam, Vanam. And Munihi, मुनिं मतिः मतिं वारि वारि. सो दिस् इस् जस्ट् टु गिव् यु एन् ऐडिया एट् दिस् पायिण्ट् वेन् यु कीप् यूसिङ्ग् इट् एण्ड् रेफरिङ्ग् टु दिस् इट् विल् कम् मोर् एण्ड् मोर् क्लियर्. ओके ओके द उकारान्त शिशुः बिकम् शिशुम् धेनुः धेनुम्. सो यूश्लि द अम् विल् कम् फोर् द द्वितीया विभक्ति एकवचन. ओके सो द एक्सेप्शन्स् यु केन् सी द पिता. ओके द पिता इस् आल्सो पितरम् मातरम्. लुक् एट् द नपुंसक लिङ्ग द वाट् एवर् इस् द प्रथमा विभक्ति एकवचनम् लैक् वारि madhu and so on, it'll all be the same. Pratama vibhakti and dvitiya vibhakti ekavachanam is the same. Okay, aham aapanam gachami, somebody said that. Aham aapanam gachami. So let's do a little bit more of the abhyasam. अभ्यासः अस्ति. बालकृष्णमहोदय पटल दृश्यते वा?
दृश्यामि.
हा किञ्चित् पठतु अभ्यासः.
अभ्यासः आवरणे स्थितानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत.
किञ्चित् अर्थं वदतु.
वाट् इस् गिवन् इन् द ब्राकेट् आवरणे स्थितानां वर्ड्स् उचितानि रूपाणि, देट् मीन्स् अप्रोप्रियेट्
forms
rikte stale, that is on the line given, that is on the space given, please write on the space given.
Uttamam mohodaya, samyak. Udaharanam patatu.
Udaharanam saha pratidinam pathati granthaha pathati.
किं भवति?
ग्रन्थं पठति.
सः प्रतिदिनं
ग्रन्थं पठति.
ग्रन्थं पठति. ओके सो ग्रन्थम् इस् द द्वितीया विभक्ति फार् ग्रन्थः. प्रथमम् अपि करोतु. कर्मकरः.
कर्मकरः वृक्षं सिञ्चति.
कर्मकरः
वृक्षं सिञ्चति.
सम्यक् महोदय, धन्यवादः.
धन्यवादः.
भूमि भगिनी अग्रिमं करोतु भगिनि.
क्षम्यतां,
प्रश्नः अस्ति वा?
आम् आम्. सिञ्चति इत्युक्ते वाटरिङ्ग् खलु?
या या वाटरिङ्ग् वाटरिङ्ग् एक्साक्ट्लि.
आम् धन्यवादः.
सज्जनः धर्मं पालयति.
सम्यक्, अग्रिममपि करोतु.
अहं शब्दं शृणोमि.
सम्यक् भगिनि, धन्यवादः.
धन्यवादः.
हिमाङ्गी भगिनी अग्रिमं करोतु.
आम्, सा इतिहासं स्मरति.
सम्यक्, अग्रिमं.
ते विद्यालयं गच्छन्ति.
तत्र सः अस्ति चेत् किं भवति वाक्यम्?
सः विद्यालयं गच्छति.
सम्यक्, धन्यवादः भगिनि.
धन्यवादः.
जया भगिनि.
महोदय.
षष्टमवाक्यम्.
सेविका आपणं गच्छति.
सम्यक्. अग्रिमम्.
स्वामिनी सेविकाम् आह्वयति.
उत्तमं, धन्यवादः.
धन्यवादः.
माधवी भगिनि.
जनकः पत्रिकां पठति.
सम्यक्. अग्रिममपि.
बालकः जननीं नमस्करोति.
सम्यक्. अन्तिममपि करोतु.
माता पुत्रीं बोधयति.
सम्यक्, धन्यवादः भगिनि. मञ्जु महोदय, अग्रिमं पठतु एतानि वाक्यानि.
एतानि वाक्यानि पठत. रामः पाठं पठित्वा निद्रां करोति.
स्मरति वा पठित्वा? त्वा प्रत्यय दृष्टवन्तः खलु प्रथमस्तरीय. यसीन्द पठित्वा गत्वा. होप्फुलि पीपल् रिमेम्बर्. धन्यवादः.
आम् आम् महोदय.
राजश्री भगिनी अग्रिमं करोतु.
बालकः हस्तं प्रक्षालय भोजनं करोति.
प्रक्षाल्य.
बालकः हस्तं प्रक्षाल्य भोजनं करोति.
दट् इस् वाट् इस् काल्ड् लबन्तपदम्. लबन्त. So instead of patitva, it means the same as dattva, but because of certain rules, it becomes lya. Okay? Prakshalya.
Okay.
Agrimam api patatu.
Chatraha patam patitum vidyalayam gacchanti.
Drishtavanta kalu patitum dattumun pratyaya. स्मरति वा पठितुं? त्वा रूपेण वदतु किं भवति तत्र.
छात्राः पाठं पठित्वा विद्यालयं गच्छन्ति.
चिन्तयतु. त्वा
छात्राः विद्यालयं.
सम्यक् भगिनि, वदतु.
विद्या. नो, ऐम् नाट् एबल् टु गेट् इट्.
या विद्यालयं
छात्राः पठितुम् ओन्लि ऐ एम् गेटिङ्ग् दिस्.
सो छात्राः. सो वेन् यु डू पठि द तुमुन् एण्ड् द त्वा, if you remember we said you have to change the order.
Yes.
Okay.
Yes.
So chhatraah vidyalayam
gatva patam patitah
patati patanti
patanti. Chhatraah. Okay. Vidyalayam gatva patam patanti.
Samya.
Okay, dhanyawad.
Yeah, understand the sentence, then you will you will know how to change it. Okay.
Okay. Okay. Dhanyavad.
Dhanyavad. Nitesh Mahodaya.
Balika patham patanti evam nidram kritvati.
Okay. So we'll leave that for now. Mahodaya, can you do the first sentence further down? Bhavati.
Bhavati Vishayam Gatva Agre Patitu.
Jnatva. Vishayam Jnatva.
Jnatva.
Jnatva ityukte? To understand or to know. Vishayam Jnatva Agre Patitu. Samyak Mahodaya. Dhanyavada.
Dhanyavada.
Rameshwari Bhagini.
Amud. Chhatraha Prashnam Prushtva Vishayam Jananti.
Samyak. Chhatraha Prashnam Prushtva Vishayam Jananti. Tumun Rupena Vaktum Shaknoti Va?
Pratnam Kurumi. Pushtva.
So, Chhatra... Chhatraha, can somebody help her out?
Yes.
How will you say the Tumut?
Aham Nasmarami Prushtva.
Vishayam Jnatum.
Vishayam Jnatva.
Vishayam Jnatum.
Vishayam Jnatva.
Jnatva.
Tishtanti.
It's gonna be Jnatum.
Jnatum. It should be Jnatum, not
Jnatum. Jnatum.
Chhatraha Vishayam Jnatum.
Jnatum.
Prashnam.
Pruchanti.
Pruchanti.
Pruchanti. Pruchanti.
I was thinking we have to use Tumun Rupam of Prushtva. So.
So the meaning changes. So here, Chhatraha Prashnam Prushtva Vishayam Jananti means what? Can you say in English? Chhatraha Prashnam Prushtva, after asking the question, they understand or they know.
Okay.
So in the Tumun, it is to know. Or to do, or to see. So, Chhatraha Vishayam Jnatum Prashnam Pruchanti.
Okay,
as we keep doing it, it'll be...
Pathaitva
Dhanyavada Mahode
Rodhanam Kritavati.
Sanjana Bhagini Agrimam Karotu.
Lekini Pathaitva Rodhanam Kritavati.
Kinchad Uchchai Vadatu Bhagini. Can you speak a bit louder?
Balika Lekani Patitva Rodhanam Kritavati.
Samya.
बालिका
Yes, what you said is right, Bhagini.
Okay.
Saraswati Bhagini, agrimam karotu.
Te patrikam patitva vishayam janati.
Jananti,
Jananti, sorry, jananti.
Samyak. Tumun?
Te vishayam jnatum patrika patayanti.
Puna vadatu bhagini?
Te vishayam jnatum patrikam patayanti.
Patanti.
Patrikam patati.
Patanti. Te, right? Patanti.
पठन्ति उत्तमं सम्यक् धन्यवादः भगिनि सुबोध महोदय
माता पाकं समाप्य सखी गृहं गतवती
सम्यक् अग्रिममपि अग्रिमं करोतु महोदय
भवान् सदा सज्जनानां व्यवहारम् अनुसृत्य गच्छतु
सम्यक् धन्यवादः महोदय सुहासिनी भगिनि
सः देवीं नमस्कृत्वा विद्यालयं गच्छति
पुनः पठतु भगिनि
सः देवीं नमस्कृत्वा विद्यालयं गच्छति
नमस्कृत्य
विद्यालयं गच्छति
Okay, the letters may be a little small, but it is Namaskritya.
Okay.
Agrimam api karotu. Next one.
Bhagini Shatikam Prakshalya Athape Prasari प्रसारितवती
सम्यक् भगिनि
वाट् इस् प्रसारितवती
ड्रायिङ्ग्
इट् इस् लैक् टु पुट् इट् औट् फार् ड्रायिङ्ग् स्प्रेडिङ्ग् मे बि
आफ्टर् देट्
Atape means outside or in the sun.
Saptami vibhakti.
Saptami.
Atape.
Atape. In the sun.
In this.
Yeah, saptami vibhakti. Samya.
Mahodaya, prashnam asti. Tritiya prashnam. What is the meaning of that? बालिका लेखनी वाट् इस् दट् पातयित्वा रोदनं कृतवती सो शी क्राइड् द बालिका द गर्ल् क्राइड्
बालिका लेखनी यु नो
लेखनी इस् पेन्
सो लेखनीं पातयित्वा मीन्स् इट् फेल् आफ्टर् इट् फेल् रोदनं कृतवती शी क्राइड्
After she
spilled, or she dropped.
Okay.
So she dropped the pen and then cries.
Okay.
Avagachati?
Thank you. Dhanyavada.
सुनील महोदय अग्रिमं करोतु.
अभ्यासं कर्तुं मम समयः नास्ति.
अग्रिममपि करोतु. भक्तः
भक्तम् अनुग्रहीतुं देवः भूलोकम् आगतवान्.
सम्यक् महोदय, धन्यवादः.
धन्यवादः.
उषा भगिनी.
अस्तु महोदय. अङ्गणीं क्रेतुं सा आपणं गतवती.
सम्यक्.
सा आपणं गत्वा अङ्गणीं क्रीणवती.
क्रीणाति और क्रीतवती.
क्रीतवती.
उत्तमम्.
धन्यवादः.
ओके, सो होप्फुलि वि गाट् एन् ऐडिया. सो just revise a little bit and we'll continue on with some exercises a little later. So we'll just have a change of scene. Let's look at a katha.
Ekam katham pashyamah. दृश्यते इति भाति. दृश्यते वा? दृश्यते इदानीम्. आम्, सम्यक्. बुद्धिमान् तेनालिरामः. ओके, बुद्धिमान् तेनालिरामः विजयनगरे कृष्णदेवरायः इति एकः राजा आसीत्. विजयनगरे कृष्णदेवरायः इति एकः राजा आसीत्. तस्य मन्त्री तेनालिरामः. सः महत् बुद्धिमान्. एकदा कश्चन ऐन्द्रजालिकः आस्थानम् आगतवान्. सो अत्र बुद्धिमान्, महात्, एतत् सर्वं हलन्तशब्दाः इति वदन्ति, इति उच्यते. सो वेन् देर् इस् अ चिन्न हलन्तचिन्न, दे आर् काल्ड् हलन्तशब्दाः. वि विल् सी लुक् एट् दोस् कैण्ड् आफ् halanta shabda later, but now for now just observe. We are not covering the vibhaktis of that in this.
Sorry to interrupt. You know, is that a typo? The buddhi, is it buddhiman and is a typo? Is buddhiman and agatavan is agatavan?
No, buddhiman. Buddhiman samyak asti. बुद्धिमान् सम्यक् अस्ति महोदय. ओ अत्र महत् बुद्धिमान्. बुद्धिमान् अपि द्वौ अपि सम्यक् एव, परन्तु बुद्धिमान् प्रायः बुद्धिमान्.
धन्यवादः.
ओ बुद्धिमत् बुद्धिमत् बुद्धिमान् स महत् बुद्धिमान् प्रायः बुद्धिमान् एव सम्यक् अत्र. ऐन्द्रजालिकः वदति, अत्र मां जेतुं कः आगच्छति? यदि कः अपि मम स्पर्धायां जयति तर्हि अहं मम सर्वम् ऐश्वर्यं दत्त्वा तस्य दासः भविष्यामि. ओके, इन्द्रजालिकः वदति अत्र मां जेतुं कः आगच्छति? यदि सः अपि मम स्पर्धायां जयति तर्हि अहं मम सर्वम् ऐश्वर्यं दत्त्वा तस्य दासः भविष्यामि. ओके, नो चेत् सः मम दासः भवतु. नो चेत् सः मम दासः भवतु इति कः वदति? ऐन्द्रचालिकः वदति. तेनालीरामः वदति, अस्तु अहं भवतः नियमम् अङ्गीकरोमि. अस्तु अहं भवतः नियमम् अङ्गीकरोमि, कृपया शृणोतु. कृपया शृणोतु, अहं मम नेत्रद्वयं निमील्य यत् कार्यं करोमि अहं मम नेत्रद्वयं निमील्य यत् कार्यं करोमि भवान् भवतः नेत्रद्वयम् उन्मील्य करिष्यति. ओके, भवान् भवतः नेत्रद्वयम् उन्मील्य करिष्यति. ऐन्द्रजालिकः वदति, अहं मम नेत्रद्वयं निमील्य अनेकान् कार्यान् कृतवान्. ओके, अहं मम नेत्रद्वयं निमील्य अनेकान् कार्यान् कृतवान् अस्मि, अतः भवान् यथा वदति तथा नेत्रद्वयम् उन्मील्य निश्चयेन करिष्यामि. एतत् ऐन्द्रजालिकः वदति. तत्पश्चात् तेनालीरामः वदति, भोः ईदृशः गर्वः मास्तु. ओके, भोः ईदृशः गर्वः मास्तु इति तेनालीरामः वदति. तेनालीरामः किं करोति? तेनालीरामः बहिः गत्वा हस्ते किञ्चित् मृत्तिकाचूर्णम् आनीतवान्. सः नेत्रद्वयं निमील्य तस्य उपरि मृत्तिकां स्थापितवान्. स्थापितवान् अस्ति, तत्र दोषः अस्ति. सः नेत्रद्वयं निमील्य तस्य उपरि मृत्तिकां स्थापितवान्. अनन्तरं मृत्तिकां निष्कास्य नेत्रद्वयम् उन्मीलितवान्. किं करोति सः? बहिः गत्वा किञ्चित् मृत्तिकाम् आनीतवान्, सः नेत्रद्वयं निमील्य तस्य उपरि मृत्तिकां स्थापितवान्. अनन्तरं मृत्तिकां निष्कास्य नेत्रद्वयम् उन्मीलितवान्. सः तेनालीरामः वदति, इदानीं भवतः पर्यायः. ओके, इदानीं भवता एवं तदैव करोतु इति, नेत्रद्वयम् उन्मील्य एतत् कार्यं करोतु. सो ऐन्द्रजालिका वदति, हे तेनालीराम, भवान् बहु चतुरः, मम पराजय अभवत्, मम सर्वम् ऐश्वर्यं ददामि इति वदति ऐन्द्रजाले. किम् इत्युक्ते, मृत्तिकां नेत्रद्वयम् उन्मील्य मृत्तिकां नेत्रे स्थापयितुं न शक्नोति खलु, अतः सः तस्य पराजयं स्वीकरोति, अङ्गीकरोति. सो तेनालीरामः वदति, मास्तु, भवान् महा कलानिपुणः एव, परन्तु गर्वः मास्तु, महाराजस्य बहुमानं स्वीकरोतु इति वदति तेनालीरामः. ऐन्द्रजालिकः सन्तोषेण बहुमानानि स्वीकृत्य गतवान्. ओके, ऐन्द्रजालिकः सन्तोषेण बहुमानानि स्वीकृत्य गतवान्. महाराजः, सर्वे जनाः च तेनालीरामं तेनालीरामं प्रशंसं करताडनं कृतवन्तः. ओके, महाराजः, सर्वे जनाः च तेनालीरामं प्रशंसा करताडनमपि कृतवन्तः. अवगतवन्तः वा सर्वे कथां? किमपि प्रश्नाः सन्ति वा?
जेतुम् इत्युक्ते किं महोदय?
विन्निङ्ग्.
अस्तु, निष्कास्य?
निष्कास्य लैक् निष्कास्य, रिमूव, निष्कास्य, थ्रो, समथिंग लाइक दैट. सो आई थिंक वी कैन लुक एट इट. we have some time. Okay, so Vijay, this is all simple, right? Vijayanagare Krishna Devarayati Ekaha Raja Asit, Khalu? Ekaha Raja, Tasya Mantri Tenali Rama, Sa Mahat Buddhiman. Okay, he is very smart. Ekada Kashchana Aindrajalika Asthanam Agatavan. Okay, so Kashchana, Kechana, in all the stories you will see that. In detail you will see that later, but somebody, okay, Ekada, some magician came to his sabha, Krishna Devaraya's sabha. So he says, nobody can defeat me, okay, nobody can win over me, that's what. So whoever wants to win, come, okay, so compete with me, that's what he says. Yadi kaha api mama Spardayam Jayati, whoever wins the competition, Tarhi Aha Mama Sarva Aishwaryam Dattva Tasya Dasaha Bhavishyami. I will give all my wealth to them. Okay? No Chet. You have seen, right? Chet. No Chet. Saha Mama Dasa. If not, he will become my Dasa. So that's what he says. So Tenali Rama Vadati Astu. So he says, Astu. Bhavataha niyamam angi karomi. I accept your rule, okay, niyamam. Kripaya shrunotu, okay, listen. Aham mama netradvayam nimilya yat karyam karomi bhavan bhavataha netradvayam unmilya karishyati. So whatever work I do, netradvayam, my two eyes, I close my eyes and do some anything, you have to do with open, your eyes open, okay. So that is the rule. So Aindrajalikah vadati, aham mama netradvayam nimilya anekan karyan kritavan. So I have closed my eyes, I have done, he is a magician, right? He has done lot of things he can do. So ataha bhavan yatha vadati tatha netradvayam unmilya nishchayena karishyami. So definitely I can do, I do it with closing my eyes. So it's nishchayena, definitely I can do opening my eyes. Eyes open. So Temnali Rama Boho Idrasha Garvaha Mastu. Don't be that proud, okay? So what happens? Tenali Rama Bahi Gatva Haste Kinchit Mrittika Churnam Anitavan. So he goes outside and gets some sand, mud, something like that. He gets from outside. Saha Netradvaya Nimilya Tasya Upari Mrittikam Tapitavan. So he closes his eyes and puts some mud on his eyes because he had closed his eyes, right? So Anantaram Mrittikam Nishkasya Netradayam Unmilitavan. So what he does? After that, he removes all the dirt from his eyes. Nishkasya, he removes all his dirt and he opens his eyes. Okay? So then he tells the Aindrajil, Idanim Bhavataha Paryayaha. Now it's your turn. Okay? Netra Dvayam Unmilya Etat Karyam Karotu. Okay? Open your eyes and do this. Whatever I did, just repeat. So then Aindrajalika Vadati, He Tenali Rama Bhavan Bahuchaturaha. You are very smart. So I am Mama Parajaya Abhat. I got defeated. Okay? Mama garvam, mama sarvam aishwaryam dadami. I'll give my all wealth to you. Okay. Tenali Rama vadati mastu bhavan maha kala nipunaha. You are very good at your craft. Okay. Parantu garvaha mastu. But should not be very proud. Okay. So maharajasya bahumanam svikarotu. He says, take all the gifts my maharaja gave. So Aindrajalika Santoshena Bhavmanani Svikritya Gatavan. So he takes his all the gift given and he left. So Maharaja Sarve Janahacha Tenali Rama Prashamcham Karataadanam Kritavantaha. So everybody is appreciative of Tenali Rama with the clapping hands and they praise him. That's the story. So go over all the vibhaktis repeatedly for just memorizing. Almost you have to memorize. So you get, since you, we don't like every day. If you speak, it will be like second nature, right? Since you don't speak, you have to just go over this to start speaking and making sentences. That's the moral. So we can see more of Dvitiya Vibhakti tomorrow, and one more Tritiya also we can see next time. So since last week I did not start because of the Independence Day in India, I thought you all will be busy, but this week I just forgot it was the Ganesh Chaturthi. So I'm sorry about the inconvenience. Hopefully it's too very early, so you can go get on with your festivities. Whatever we can do in these days. So it's tomorrow is for us the Ganesh Chaturthi. Today was Gauri. So okay. So any questions or anything? One by one.
So just to let you know, I have emailed the Vibhakti Vallari. It's a pretty big document, so it's about 6 megs. So you should be getting it slowly. So looking at that story also, you should be able to figure out some of the Vibhaktis in that. Okay, there are a lot of Dvitiya Vibhakti, Saptami, Shashti and all that. So we have a couple of minutes, so I will just ask some questions. Bhumi Bhagini, can you say Vijayanagare ka vibhakti?
Saptami.
Uttamam. Kim asti. Dhanyavad Bhagini.
धन्यवाद.
माधवी भगिनी, अनेकान कार्यान जानाति वा?
द्वितीया विभक्ति महोदय.
द्वितीया विभक्ति
बहुवचनम्.
उत्तमम्. द्वितीया विभक्ति बहुवचनम्, अनेकान कार्यान. धन्यवाद भगिनी. हेमांगी भगिनी, निश्चयेन.
निश्चयेन
चिन्तयतु. निश्चयेन देवेन रामेण.
आम् तृतीया विभक्ति एकवचन.
सम्यक् उत्तमम्. धन्यवादः. सुबोध महोदय, संतोषेन.
तृतीया विभक्ति एकवचन.
सम्यक्.
धन्यवाद.
उत्तमम्. नितेश महोदय, कार्यम करोतु. कार्यम का विभक्ति?
द्वितीया विभक्ति एकवचनम्.
Who speaking?
I don't know, but I think it is tritiya vibhakti and dvivachanam.
द्वितीया विभक्ति एकवचनम्.
एकवचनं
कार्यं लेट्स सी स्पर्धायां लेट्स सी सरस्वती भगिनी वदतु स्पर्धायां
मालायां दैट विल बी सप्तमी विभक्ति स्पर्धा स्त्रीलिंग आकारांत स्त्रीलिंग एकवचनम् सप्तमी
सम्यक् सम्यक् उत्तमं भगिनी एंड प्लीज गो ऑन म्यूट ओनली द पर्सन आई एम आस्किंग प्लीज से ओके अप्रिशिएट इट शृणोतु सुनील महोदय व्हाट इज द फॉर्म ऑफ शृणोतु
It's a shrunotu as in order or appeal or what is it called?
What agya prat?
Agya prati. Sorry.
Yeah, but what do we call it? Do you remember? It is the lot lakar. Lot
lakar. Lot lakar.
Dhanyavaad mohan. बालकृष्ण महोदय करिष्यति व्हाट इज दैट व्हाट टेंस कैन यू से करिष्यति
करिष्यति
करोति इज वर्तमान काल
करिष्यति सो फ्यूचर टेंस
किं किं वदति फ्यूचर टेंस संस्कृते किं वदति
भविष्यत्
भविष्यत् का सम्यक् महोदय सो जस्ट यू नो आई एम आस्किंग दिस नॉट टू पुट यू ऑन द स्पॉट बट जस्ट टू सो दैट वी ऑल अंडरस्टैंड यू नो द डिफरेंट फॉर्म्स दैट वी हैव कवर्ड इन द लेवल वन And hopefully for newcomers also it is helpful.
Yeah, it helps us.
So just like a quick revision, you know, we haven't, we just started off straight away. So hopefully this is, and please take my questions on in the right spirit, everybody.
Yeah, definitely.
जया भगिनी वदतु स्थापितवान् वाट् इस् इट् वाट् लिङ्ग वाट् कालम् जया भगिनी किञ्चित्
स्थापितवान् इट् इस् भूतकाल भूतकाल एकवचन
भूतकालरूपं
भूतकालरूपं
स्त्रीलिङ्ग पुल्लिङ्ग वाट् लिङ्ग
पुल्लिङ्ग पुल्लिङ्ग एकवचन
शब्द सम्यक् धन्यवादः सुहासिनी भगिनी अङ्गीकरोमि केन् यू से वाट् इट् विल् बी फार् प्रथमपुरुष
अङ्गीकरोति.
सम्यक् भगिनि, उत्तमम्. अङ्गीकरोमि इस् फार् उत्तमपुरुष. सम्यक्. अहम् अस्ति खलु, अहम् अङ्गीकरोमि. रामः अङ्गीकरोति मीन्स् हि अग्रीस् आर् अङ्गीकरोमि. ऐ अग्री. भगिनि
धन्यवादः.
अपर्णा भगिनी, भविष्यामि किञ्चित् वदतु.
भविष्यामि वुड् बि भविष्यत् काल.
उत्तमपुरुष
एकवचनम्.
प्रथमपुरुषे किं भवति?
भवति.
नो नो, भविष्यामि इस् फार् उत्तमपुरुष. अहं भविष्यामि, लैक् सी देर् इस् अहम्.
यस्, अहं भविष्यामि. सः सः अस्ति और् सः भवति.
हा, सम्यक्, उत्तमं भगिनि, उत्तमं.
धन्यवादः.
सुबोध्
एकः प्रश्नः महोदय. भविष्यत्काले भविष्यति भवतु वा? भविष्यामि भविष्यति.
हा, भविष्यति. या,
धन्यवादः.
माधवी भगिनी, आसीत्, डिड् ऐ आस्क् यू? ओके.
भूतकालरूपं महोदय, प्रथमपुरुषः एकवचनम्.
सम्यक्. सुबोध् महोदय, ईदृशः किञ्चित् वदतु.
ईदृशः
सो यू हैव डन् ईदृशः, तादृशः, कीदृशः.
लेट्स दिस काइंड.
एग्जैक्टली दिस काइंड, दिस टाइप. सम्यक्. संजना भगिनी, कृतवान् किञ्चित् वदतु. कृतवान् वदतु. भूतकाल
भूतकाल
what linga is it?
Pulinga.
स्त्रीलिङ्गे किं भवति?
कृतवती.
सम्यक्. कृतवान्, कृतवती. सो केन् यू से इन् स्त्रीलिङ्ग भूतकाले बहुवचने किं भवति?
कृतवती.
कृतवत्यः.
ओ सारी, या, कृतवत्यः.
पठितवती वा भूतकालरूपं? हेव् यू डन् देट्?
द प्लुरल्?
द कृतवत्यः.
यस्.
ओके.
कृतवत्यः.
सम्यक्. Okay, so we are getting close to time. So I would advise, you know, just look at the those tables and just focus on one pullinga, one strilinga, one napunsakalinga, just so that you get an idea of the prathama, dvitiya. You don't have to, like, you know it by heart, but just so that you, Sanskritam is all based on patterns. So once you understand a pattern, it will be fairly straightforward. Okay? And always keep in mind there are exceptions, but once you get the pattern, then you should be quite fairly simply, you can figure out what vibhakti, what vachanam. Okay? Okay, so Prashna asti va?
Ajay Mahodaya, can you please open the first karakam, the chart, because I think we didn't start the recording at the time, so the first one with all the seven vibhaktis.
The first one?
Yeah,
this one?
Okay. Yeah. So now I can get it in the record. Okay.
So you want to go over this again?
No. Because I think we didn't started the recording, so I just wanted this chart. So now we have it.
Okay.
Okay. Thank you.
Good catch, Bhagini. Dhanyavaad.
Yeah. Dhanyavaad.
Okay, so if there are no more questions, so the good news is there is no home assignment for this week because we have not done it yet. But please revise and focus on the Dvitiya Vibhakti where it is used. And remember the Ekam Dve Ekam, Aham Apanam Gacchami, the Kartrupadam, the Karma Padam, and the Kriya Padam. So these words you should get very familiar with because we'll see it more and more as we go along. So you're clear when we say Kartrupadam, that is what? It is the subject. Kartrupadam is the subject. Karma Padam is the object. And the Kriya Padam is the verb. So just revise those. And if there are no other questions, we can end with the Shanti Mantram.
Om Sarve Bhavantu Sukhinaha, Sarve Santu Niramayaha, Sarve Bhadrani Pashyantu, Ma Kaschid Dukkha Bhag Bhavet. Om Shanti Shanti Shanti.
Namaskara.
Dhanyavada Sarvebhya. And hopefully we'll be.
Dhanyavada Mahodaya.
Dhanyavada.